अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। प्रथमं मुख्यः वार्ताः। केन्द्रीय नवीन सर्वकारस्य श्वः भावमानस्य प्रतिज्ञा ग्रहण समारोहस्य सज्जता प्रचुरतायाम्। शपथ ग्रहण समारोहे भागं ग्रहीतुं निकटवर्तिनां देशानां विभिन्नाः नेतारः आमन्त्रिताः। निर्वाचन आयोगेन जम्मू कश्मीरस्य विधानसभायां सामान्य निर्वाचनाय सामान्य चिह्नानां आवंटनानां राजनैतिक दलानां आवेदनानि स्वीकृतानि। राष्ट्रपतिः द्रौपदी मुर्मुः प्रधानमंत्री नरेन्द्र मोदी च रामोजी रावस्य निधने शोकं प्रकटितवन्तौ। अपि च आईसीसी पुरुष टी20 विंशति क्रिकेट विश्व चषके बांग्लादेशः श्रीलंकां पराजितवान्, अफगानिस्तानश्च न्यूजीलैंडं पराजितवान्। इदानीं वार्ताः विस्तरेण। केन्द्रीय नवीन सर्वकारस्य श्वः भावमानस्य प्रतिज्ञा ग्रहण समारोहस्य सज्जता प्रचुरतया जायते। राष्ट्रपतिः द्रौपदी मुर्मुः एनडीए संसद दलस्य नेतारं नरेन्द्र मोदिनं नवीन सर्वकारस्य निर्माणाय आमन्त्रितवती। शपथ ग्रहण समारोहः श्वः सायं 15:45 राष्ट्रपति भवनस्य प्रांगणे भविता। राष्ट्रपतिः द्रौपदी मुर्मुः श्री नरेन्द्र मोदिनं तस्य मंत्री परिषद सदस्यान् च पदस्य गोपनीयतायाश्च शपथं दापयिष्यति। श्री मोदी ह्यः राष्ट्रपतिना सह मेलनं कृतवान्, नवीन सर्वकार निर्माणस्य च प्रस्तावं प्रस्तुतवान्। राष्ट्रपति भवनात् बहिः मोदी न्यगदत् यत् राष्ट्रीय जनतांत्रिक गठबंधनम् इति दलं सुदृढं सुस्थिरं विकासोन्मुखं च सर्वकारं निर्मास्यति। श्री मोदिना उक्तं यत् जनाः राष्ट्रीय जनतांत्रिक गठबंधनम् इत्यस्मै एकं अवसरं प्रदत्तवन्तः। अपि च एतत् 18 लोकसभा नवीनानां यूनां च ऊर्जायाः स्रोतः अस्ति। विदेश मन्त्रालयेन सूचितं यत् श्रीलंकायाः राष्ट्रपतिः रानिल विक्रमसिंघे, मालदीवस्य राष्ट्रपतिः डॉक्टर मोहम्मद मुइजुह, सेशेल्स देशस्य उपराष्ट्रपतिः अहमद अफीफः, बांग्लादेशस्य प्रधानमंत्री शेख हसीना, मॉरिशस देशस्य प्रधानमंत्री प्रविन्द कुमार जुगनौथः, नेपालस्य प्रधानमंत्री पुष्पकमल दहलः प्रचण्डः, भूटानस्य च प्रधानमंत्री शेरिंग तोबगे, इमे सर्वेपि समारोहे भागं ग्रहीष्यन्ति। एते नेतारः अस्माकं संवाददातृभिः सूचितं यत् श्री नरेन्द्र मोदी तृतीयं वारं प्रधानमंत्री पदस्य शपथ ग्रहण समारोहे भागं ग्रहीतुं निकटवर्तिनां देशानां विभिन्नाः नेतारः आमन्त्रिताः। निर्वाचन आयोगेन जम्मू कश्मीरस्य विधानसभायां सामान्य निर्वाचनाय सामान्य चिह्नानां आवंटनं याचमानानां राजनैतिक दलानां आवेदनानि तत्कालं प्रभावेण स्वीकर्तुं निर्णयः नीतः। सर्वोच्च न्यायालयेन गत दिसंबर मासे निर्वाचन आयोगाय निर्देशः प्रदत्तः आसीत् यत् अस्मिन् वर्षे सितंबर मासस्य 30 दिनांकपर्यन्तं जम्मू कश्मीरे विधानसभा निर्वाचनं भवतु, पंजीकर्तॄणां अमान्य दलानां निर्वाचनाय अभ्यर्थिनः स्थापयितुं सामान्य चिह्नस्य कृते आवेदनं कर्तव्यं भवति। राष्ट्रपतिः द्रौपदी मुर्मुः प्रधानमंत्री नरेन्द्र मोदी च रामोजी रावस्य निधने शोकं प्रकटितवन्तौ। पद्मविभूषणेन सम्मानितस्य रावस्य दृष्टिकोणः सामाजिक उत्थाने निहितः आसीत्। इमादु समूहस्य संस्थापकस्य वार्ता समवायस्य सुविख्यातस्य रामोजी रावस्य अद्य प्रातः हैदराबादे निधनं जातम्। सः 87 वर्षीयः आसीत्। संस्कृत वार्तायाः संस्करणं इदं इदानीं आकाशवाणीतः प्रसार्यते। समं एव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जाल पटले www.newsoneir.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। कांग्रेस दलस्य कार्य समितेः उपवेशनम् राजधान्याः नवदिल्ल्यां सम्पन्नम्। उपवेशने कांग्रेस दलाध्यक्षः मल्लिकार्जुन खड्गे, वरिष्ठाः दलनेतारः सोनिया गांधी, राहुल गांधी च दलमहासचिवा प्रियंका गांधी वाड्रा, दलस्य अन्ये च नेतारः उपस्थिताः आसन्। उड़ीसायां सोमवासरे भारतीय जनता पार्टी इति दलस्य प्रथम मुख्यमंत्रिणः शपथ ग्रहण समारोहस्य सज्जता संचलति। तद्दिने प्रातः भाजपा विधानमंडलम् दलस्य उपवेशनम् भविता। तेलुगु देशम दलस्य राष्ट्रीय अध्यक्षः चंद्रबाबू नायडूः जून मासस्य द्वादश दिनांके 27 कलोत्तर 11 वादने आंध्र प्रदेशस्य मुख्यमंत्री पदस्य शपथं स्वीकरिष्यति। समारोहः विजयवाड़ा नगरस्य समीपे भविता। श्री नायडूः चतुर्थं वारं राज्यस्य मुख्यमंत्री भविष्यति। राष्ट्रीय परीक्षा समवायेन एनटीए इत्यनेन उक्तं यत् राष्ट्रीय पात्रता सह प्रवेश परीक्षायाः 24-2000 इत्यस्य संपूर्णा प्रक्रिया अतीव पारदर्शिनी अभवत्, तथा च संपूर्णेपि देशे परीक्षायाः अखंडतायाः कृते प्रमादः न भविष्यति। परीक्षा मई मासस्य पंचमे दिनांके अभवत्। अस्य मासस्य चतुर्थे दिनांके परिणामः घोषितः। अभ्यर्थिना उत्थापितानां विषयाणां विषये नवदिल्ल्यां वार्ताहरान् संबोधयन् एनटीए महानिदेशकः सुबोध कुमार सिंहः अवदत् यत् परीक्षा प्रश्नपत्रस्य पूर्व प्रसारः नैव अभवत्। सः अवदत् यत् नीट परीक्षा संबद्धः विषयः 6 केन्द्रैः 1600 अभ्यर्थिभिः च संबद्धः अस्ति, येषां प्रश्नपत्रस्य अनुचित वितरणस्य कारणेन समयः नष्टः जातः। प्रियाः श्रोतारः, संस्कृत जगता संबद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 20:01 भविष्यति। भवन्तः सर्वेपि श्रोतुं प्रभवन्ति। भवती आशासे भवन्तः प्रति रविवासरं श्रोष्यन्ति इति। आईसीसी पुरुष T20 इति क्रिकेट विश्व चषके बांग्लादेश श्रीलंका दलं पराजितवान्। अफगानिस्तानश्च न्यूजीलैंड दलं पराजितवान्। फ्रेंच ओपन टूर्नामेंट स्पर्धा श्रृंखलायां महिला एक कांत्य चक्रे पोलैंडस्य इगा स्वियातेक इटली देशीयां च स्पर्धिष्येते। लंदने एफआईएच हॉकी प्रो लीग इत्यत्र अद्य भारतं जर्मनीं सम्मुखी करिष्यति। अस्मात् प्राक् भारतेन जर्मनी दलं 3-0 अंकैः पराजितम्। इति वार्ताः।